अथ दशमोऽध्यायः श्रीभगवानुवाच भूय एव महाबाहो शृणु मे परमं वचः यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया न मे विदुःसुरगणाः प्रभवं न महर्षयः अहमादिर्हि देवानां महर्षीणां च सर्वशः यो मामजमनादिं च वेत्ति लोकमहेश्वरम् असम्मूढसमर्त्येषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमश्रमः सुखं दुःखं भवो भावः भयं चाभयमेव च अहिंसा समता तुष्टिः तपोदानं यशो यशः भवन्ति भावा भूतानां मत्त एव पृथग्विधाः महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा मद्भावा मानसा जाताः येषां लोक इमाः प्रजाः एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः सो विकम्पेन योगेन युज्यते नात्र संशयः अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते माम् बुधा भावसमन्विताः मच्चित्तामद्गतप्राणाः बोधयन्तः परस्परम् कथयन्तश्च माम् नित्यम् तुष्यन्ति चरमन्ति च तेषाम् सततयुक्तानाम् भजताम् प्रीतिपूर्वकम् ददामि बुद्धियोगं तम् येन मामुपयान्ति ते तेषामेवानुकम्पार्थम् अहमज्ञानजन्तमः नाशयाम्यात्मभावस्थः ज्ञानदीपेन भास्वत अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भव पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुम् आहुस्वां ऋषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे सर्वमेतद्वृतं मन्ये यन्मां वदति केशव न हि ते भगवन् व्यक्तिम् विदुर्देवान दानवाः स्वयमेवात्मनात्मानम् वेत्थत्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हस्य शेषेण दिव्याह्यात्मविभूतयः याभिर्विभूतिभिर्लोकान् इमां स्वं व्याप्यतिष्ठति कथं विद्यामहं योगिन् त्वां सदा परिचिन्तय केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया विस्तरेणात्मनो योगम् विभूतिं च जनार्दन भूय कथय तृप्तिः शृण्वतो नास्ति मे मृतम् श्रीभगवानुवाच हन्तते कथयिष्यामि दिव्यास्यात्मविभूतयः प्राधान्यतः कुरु श्रेष्ठ नस्त्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहमादिश्च मध्यम् च भूतानामन्त एव च आदित्यानामहम् विष्णुः ज्योतिषाम् रविरंशुमा मरीचिर्मरुतामस्मि नक्षत्राणामहम् शशी वेदानाम् सामवेदोऽस्मि देवानामस्मि वासवः इन्द्रियाणाम् मनश्चास्मि भूतानामस्मि चेतना रुद्राणाम् शङ्करश्चास्मि वित्तेशो यक्षरक्षसा वसूनाम् पावकस्यास्मि मेरुशिखरिणामहम् पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् सेनानीनामहम् स्कन्दः सरसामस्मि सागरः महर्षीणाम् भृगुरहम् गिरामस्मैकमक्षरम् यज्ञानाम् जपयज्ञोऽस्मि स्थावराणाम् हिमालयः अश्वत्थ सर्ववृक्षाणाम् देवर्षीणाम् च नारदः गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलो मुनिः उच्चैश्रवसमश्वानाम् विद्धि मामृतोत्तमम् ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् आयुधानामहम् वज्रम् धेनूनामस्मि कामधुक् व्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः अनन्तश्चास्मि नागानाम् वरुणो यादसामहम् पितॄणामर्यमा चास्मि यमः संयमतामहम् प्रह्लादश्चास्मि दैत्यानाम् कालकलयतामहम् मृगाणाम् च मृगेन्द्रोऽहम् वैनतेयश्च पक्षिणा पवनः पवतामस्मि रामशस्त्रभृतामहम् जटाणाम् मकरश्चास्मि स्रोतसामस्मि जाह्नवी सर्गाणामादिरन्तश्च मध्यम् चैवाहमर्जुन अध्यात्मविद्या विद्यानाम् वादः प्रवदतामहम् अक्षराणाम् अकारोऽस्मि द्वन्द्वः सामासिकस्य च अहमेवाक्षयः कालः धाताहम् विश्वतो मुखः मृत्युः सर्वहरस्याहम् उद्भवश्च भविष्यताम् कीर्तिश्रीवाक्यनारीणाम् मृतिर्मेधा धृतिक्षमा बृहत्साम तथा साम्नाम् गायत्री छन्दसामहम् मासानाम् मार्गशीर्षोऽहम् ऋतूनाम् कुसुमाकरः द्यूतम् चलयतामस्मि तेजस्तेजस्विनामहम् జయోస్మి వ్యవసాయోస్మి సత్వం సత్వవతామహం వృష్ణీనాం వాసుదేవోస్మి పాండవానాం ధనంజయః మునీనామప్యహం వ్యాసః కవీనాం ఉషనా కవిః దండోదమయతామస్మి నీతిరస్మి జిగీషతాం మౌనం చైవాస్మి గుహ్యానాం జ్ఞానం జ్ఞానవతామహం యచ్చాపి సర్వభూతానాం బీజం తదహమర్జున న తదస్తి వినాయక్త్యాద్ మయా భూతం చరాచరం నాంతోస్తి మమ దివ్యానాం విభూతీనాం పరంతప ఏష తుద్దేశత ప్రోక్తః విభూతేర్విస్తరో మయా యద్యద్ విభూతిమత్ సత్వం శ్రీమదూర్జితమేవ వా తత్తదేవావగచ్చత్వం మమ తేజోంశ సంభవం అథవా బహునైతేన కిం జ్ఞాతేన తవార్జున విష్టవ్యాహమిదం కృష్ణం ఏకాంశేన స్థితో జగత్ ఓం తత్సదితి శ్రీమద్భగవద్గీతాసు ఉపనిషత్సు బ్రహ్మ విద్యాయాం యోగశాస్త్రే శ్రీకృష్ణార్జున సంవాదే విభూతియోగో నామ దశమోధ్యాయః।